राम गीता जी का पाठ 17वां अध्याय श्लोक 21 से अध्याय समाप्ति तक। राम
वसुदेव सुतं पंचजानुरमर्दनं देवकी करमानंदं कृष्णं वंदे जगद्गुरुं यत्तु प्रत्युपकारार्थं प्रथमोद्देश्य वा पुनः दीयते च परिश्रेष्टं तद्दानं राजसंस्मृतम् परेषु काले यद्दानमपाठेभ्यश्च दीयते असत्कृतमवज्ञातम् तत्तामसमुदाहितम् ॐ तत्सदिति निर्देशो ब्राह्मणस्य विधस्मृत ब्राह्मणास्तेन वेदास्तु यज्ञश्च विहिता पुरा तस्मा भूमेत्युदासेभ्य यज्ञदान तपक्रिया प्रवर्तन्ते विधानोक्ता सततं ब्रह्मवादिनां तदित्यनभिसंहायो फलं यज्ञतपःक्रिया दानक्रियाश्च विविधा क्रियन्ते मोक्षकाङ्क्षिभिः सद्भावे सानुभावेषु सदिचेत प्रयुज्यते रसस्ते कर्मणि तथा सत्शब्दः पाठयुज्यते यज्ञे तपसि दाने च स्थितु सदिति शोक्यते कर्म चैव तदर्थीयम् सदित्येवाभिधीयते अश्रद्धयाहुतं दत्तं तपस्तत्तं कृतं च यत् असदित्योच्यते पार्थो महतो कृत्यनो यः न च तत्प्रेत्यनो इव
ॐसस्तभगवद्गीतासूत्रिसत्सुवृन्दयामिहोशास्त्रे श्रीकृष्णायकुमारे श्रद्धार्थ्य विभागयो नाम सप्तदश
वसुदेव सुतं देवं पंचजानुरमर्दनं देवकीकरमानन्दं कृष्णं वन्दे जगद्गुरुं
हरे शरणम् 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 हरे शरणम्।